ॐ गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आन शृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजिनीवती धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उत ईशवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयेषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतया नो रुद्रमृडया याते रुद्रशिवा तनोर्घोरापापकाशिनी तया नस्तनुवाशन्तमया येषन्ताभिचाकषेः यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसे पुरुषम् जगत् शिवेन वचसा त्वा गिरिशा च वदामसे यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अध्यवोचदधि वक्ता प्रथमो दैव्योऽभिषक अहि कश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रौ अरुण उत बभ्रस्वमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्ष्वश्रुता सहस्रशो वैशागुम् हेडैमहे अदव्यो वसर्पति नीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्वदहार्यः उदैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वदस्त्वमुभयोरार्त्ययोर्ज्याम् याश्च देहस्तैषवपराता भगवो वप अवदत्यधनुस्त्वगुम् सहस्राक्षजतेषु दे निषेर्य शल्यानामुखा शिवो न सुमना भव वीर्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उदा अनेशन्यस्येषव आपुरस्य निषङ्गतिः याते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधायानातदाय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरांतकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकंठाय मृत्युंजयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। नमो हिरण्यवाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्लुषाय विव्याधिनेन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथा विनेक्षेत्राणां पतये नमो नमः सूताय हन्त्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय क्षाणां पतये नमो नमो भुवन्तये वायवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नमः कृत्स्नभीताय धावते सत्वनां पतये नमः। नमः सहमानाय निव्याधिनाभ्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिने सेनानां पतये नमो नमो निषङ्गिन इषु धिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः सृकाविभ्यो जिगागुंसद्भ्यो मुष्णतां पतये नमो नमो श्रीमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीशिरे गिरिचराय कुलुञ्चानां पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आदन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपतिभ्यश्च वो नमः। नम आव्याधिनेभ्यो विविध्यन्ति भ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो कृत्स्येभ्यो कृत्स्नपतिभ्यश्च वो नमो नमो रातेभ्यो रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतिभ्यो रतेभ्यश्च वो नमो नमो रतेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः కులాలేభ్య కర్మాలేభ్యశ్చ వో నమో నమః పుంజిష్టేభ్యో విశాలేభ్యశ్చ వో నమో నమః ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమః మృగయుభ్యశ్వనిభ్యశ్చ వో నమో నమః శ్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శిశికంఠాయ చ నమః కవర్దినే చ వ్యుక్తకేశాయ చ నమః సహస్రాక్షాయ చ శతధన్వనే చ నమః గిరిశాయ చ శిపివిష్ఠాయ చ నమో మీరుష్టమాయ చేషుమతే చ నమో రస్వాయ చ వామనాయ చ నమో బృహతే చ వర్షీయసే చ నమో వృద్ధాయ చ సంవృద్ధ్వనే చ నమో అగ్ర్యాయ చ ప్రథమాయ చ నమః ఆశవేశాజిరాయ చ నమః శీఘ్రియాయ చ శేభ్యాయ చ నమః ఓర్మ్యాయ చ వస్వన్యాయ చ నమః చోదస్యాయ చ ద్వేప్యాయ చ నమో జ్యేష్ఠాయ చ కనిష్ఠాయ చ నమః పూర్వజాయ చ పరజాయ చ నమో మధ్యమాయ చ ప్రగల్భాయ చ నమో జగన్యాయ చ ముద్రియాయ చ నమః సోభ్యాయ చ ప్రతిశర్యాయ చ నమో యామ్యాయ చ క్షేమ్యాయ చ నమః ఉర్వర్యాయ చ ఖల్యాయ చ నమః శ్లోక్యాయ చ వసాన్యాయ చ నమో వన్యాయ చ కక్ష్యాయ చ నమః శ్రవాయ చ ప్రతిశ్రవాయ చ నమః ఆశుషేణాయ చాశురథాయ చ నమః శూరాయ చావభిందతే చ నమో హర్మిణే చ వరూథినే చ నమో భిల్మినే చ కవచినే చ నమః శ్రుతాయ చ శ్రుతసేనాయ చ నమో దుందుభ్యాయ చ హనన్యాయ చ నమో దృష్ణవే చ ప్రముషాయ చ నమో దూతాయ చ ప్రహితాయ చ నమో నిషంగిణే చేషుధిమతే చ నమస్తేష్మేషవేచాయుధినే చ నమస్వాయుధాయ చ సుధన్వనే చ నమస్తుత్యాయ చ పథ్యాయ చ నమః కాత్యాయ చ నీప్యాయ చ నమస్తోధ్యాయ చ సదస్యాయ చ నమో నాధ్యాయ చ వైషంతాయ చ నమః కోప్యాయ చ వట్యాయ చ నమో వర్ష్యాయ చ వర్ష్యాయ చ నమో మేధ్యాయ చ విద్యుత్యాయ చ నమః ఐద్రయాయ చ తప్యాయ చ నమో వాత్యాయ చ రేష్మ్యాయ చ నమో వాసవ్యాయ చ వాస్తుపాయ చ ఓం హర 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 ఓం నమః సోమాయ చ రుద్రాయ చ నమః సామ్రాయ చ అరుణాయ చ నమః శంగాయ చ పశుపతయే చ నమః ఉగ్రాయ చ భీమాయ చ నమో అగ్రే వదాయ చ దూరే వదాయ చ నమో అంత్రే చ హనీయసే చ నమో వృక్షేభ్యో హరికేశేభ్యో నమస్తారాయ నమః శంభవే చ మయోభవే చ నమః శంకరాయ చ మయస్కరాయ చ నమః శివాయ చ శివతరాయ చ నమస్తీర్థ్యాయ చ కోల్యాయ చ నమః పార్యాయ చ వార్యాయ చ నమః ప్రతరణాయ చోత్తరణాయ చ నమః ఆతార్యాయ చ లాఘ్యాయ చ నమః శస్మ్యాయ చ వేన్యాయ చ నమః శికత్యాయ చ ప్రవాహ్యాయ చ నమ ఇరిణ్యాయ చ ప్రపత్యాయ చ నమ కేగం శిలాయ చ క్షయణాయ చ నమ కపర్దినే చ పులస్తయే చ నమో గోష్యాయ చ గృహ్యాయ చ నమ స్థల్ప్యాయ చ గేహ్యాయ చ నమ కాట్యాయ చ గవ్వరేష్ఠాయ చ నమో హృదయ్యాయ చ నివేష్యాయ చ నమ పాగుం సవ్యాయ చ రజస్యాయ చ నమ శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమ ఊర్భ్యాయ చ సూర్మ్యాయ చ నమ పర్ణ్యాయ చ పర్ణశక్త్యాయ చ నమో భగురమాణాయ చ విఘ్నతే చ నమ ఆఖిదతే చ ప్రఖిదతే చ నమో కిరికేభ్యో దేవానాగం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విచిన్వత్కేభ్యో నమ నిర్హతేభ్యో నమ ఆమీ భత్కేభ్యః ద్రాపే అంధసస్పతే దరిద్రన్నీలలోహిత ఏషాం పురుషాణామేషాం పశూనాం మావేర్మా రోమో ఏషాం హించ నామమత్ యాతే రుద్ర శివా తను శివా విశ్వాః భేషజే శివా రుద్రస్య భేషజి తయానో మృడజీవసే ఇమాగుం రుద్రాయ తవసే కవర్దినే క్షయద్వీరాయ ప్రభరామహే మతిం యథా నశ్యమస ద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం మృడానో రుద్రోతనోమయస్కృతి క్షయద్వీరాయ నమసా విధేమతే యచ్చంచయోశ్చ మనురార్య చేపితా తదశ్యామ తవ రుద్ర ప్రణీతో మానో మహాంతముత మానో అర్భకం మాన ఉక్షంతముత మాన ఉక్షితం మానో వదే పితరం మాత మాతరం ప్రియామానస్తనువో రుద్రరీరిషః మానస్తోకేతన ఏమాన ఆయుషి మానో గోషు మానో అశ్వేషురీరిషః వీరాన్మానో రుద్రమామితోపదే హవిష్మంతో నమసా విధేమతే ఆరాత్తే గోగ్న ఉత పూరుషగ్రే క్షయద్వీరాయ సుందభస్మేతే అశ్వో రక్షాచరో అధి చ దేవ బ్రూహ్యతాచరశ్చర్మ యచ్చ ద్విబర్హాః స్వహిష్ణుతం గట్ట సదం యువానం మృగన్న భీమముపహత్నముగ్రం మృడా జరిత్రే రుద్రస్తవానో అన్యంతే అస్మన్నివ పంతు సేనా పరిణో రుద్రస్య హేతుర్వృణక్తు పరి ద్వేషస్య దుర్మతిరఘాయో అవస్థిరా మగవద్భ్యస్తనుష్వమేవ స్తోకాయతనయాయ మృడయా మేడుష్టమ శివతమ శివో నః సుమనాభవ పరమే వృక్ష ఆయుధన్నిదాయ కృత్తిం వసాన ఆచర పినాకం బిభ్రదాగహే వికిరిత విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయోన్యమస్మన్నివ పంతు సహస్రాణి సహస్రధా బాహువోస్తవ హేతయః తాసామీశానో భగవః పరాచీనాముఖాకృతే సహస్రాణి సహస్రశో యే రుద్ర అధిభూమ్యాం తేషాగుం సహస్రయోజనే వధన్వాని తన్వసే అస్మిన్ మహత్యర్ణవేంతరిక్షే భవా అదే నీలగ్రీవా క్షితికంఠా శర్వా అదః క్షమాజరా నీలగ్రీవా క్షితికంఠా దివగుం రుద్ర ఉపశ్రితా యే వృక్షేషు సస్పింజరా నీలగ్రీవా విలోహితా ये भूतानामधिपतयो विशिकाद कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विवतो जनान् हे पथाम् पथिरक्षय ऐलभृदायभ्युदः ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुम् सहस्रयो जने वदन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिव्ये शामन्नम्बातु वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतिचीर्दशोदेचीर्दशोढ्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् द्विष्मो यश्च नो द्वेष्टितम् भोजम् वेदधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् अर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नव्यो अप्सूय ओषधीषु यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योमत्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनानेनाप्यायस्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुष्टुभियस्विषुसुधन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वामहेशौ मनसाय रुद्रम् नमो भृद्देवमसुरम् ध्रुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्ववेशयो यगुम् शिवाभिमर्शनः ॐ शान्ति
शान्ति
शान्तिः
ॐ
अग्ना विष्णो सजोषसेवावद्धन्तु वाङ्गिरः ैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे
पानश्च मे
व्यानश्च मे सुश्च मे चित्तम् च आधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च मओजश्च मे सहश्च मआयुश्च मे जरा च मात्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुञ्जि च मे शरीराणि च मे ज्येष्ठ्यम् च माधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वश्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे द्विषश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् चित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुखं च मे सुपथं च वरुद्धं च वरुद्धिश्च मे क्लृप्तं च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मेनु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे
संवेच्च मे ज्ञात्रं च मे
सोश्च मे प्रसोश्च मे सेनं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सुषा च मे सुदिनं च मे ऊर्च मे सोन्नृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे
सद्यश्च मे
सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मे नन् च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माषाश्च मे त्रिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यावाकाश्च मे नीवाराश्च मे
अश्मा च मे मृत्तिका च मे
गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे
ग्राम्याश्च मे
पशव आरण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे
भाता च म इन्द्रश्च मे
विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेन्दरे क्षं च म इन्द्रश्च मे
द्योश्च
म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे
मूर्धा
च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे दाभ्यश्च मेधिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतु ग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे हार्योजनश्च मे
इद्मश्च मे बर्हिश्च मे वेदिश्च मे धृष्णीयाश्च मे श्रुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आधवनीयश्च म आग्नेर्ध्रं च मे हविर्धारं च मे ग्रहाश्च मे सतश्च मे पुरोडाशाश्च मे पचताश्च मे वभृतश्च मे स्वराकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेश्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्योश्च मे शक्वरेरङ्गुलज्योतिषश्च मे यज्ञेन कल्पन्तामृच्च मे ताम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च ऋतुश्च मे रतं च मे होरात्रयो ृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्य मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्य मे तुर्यौहे च मे पष्टवाच्य मे पष्टौहे च म उक्षा च मे वशा च वृषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च मायुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताम् श्रोत्रै यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंषट्च मे त्रयस्त्रिगुंषट्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मे साविगुंशतिश्च मे द्वात्रिगुंषट्च मे षट्त्रिगुंषट्च मे चत्वा ष्टच्च मे चतुश्चत्वारि गुंषच्च मेष्टा चत्वारि गुंषच्च मे वाजश्च प्रसवश्च पिजश्च क्रतुश्च सुवश्च मूर्धा च
ವ್ಯಶ್ನಿಯಶ್ಚಾಂತ್ಯಾಯನಶ್ಚಾಂತ್ಯಶ್ಚ ಭುವನಶ್ಚ ಭುವನಶ್ಚಾಧಿಪತಿಶ್ಚ ಇಡಾದೇ ಬಹುರ್ಮನುರ್ಯಜ್ಞ ನಿರ್ಬೃಹಸ್ಪತಿರುಕ್ತಾ ಮದಾನಿ ಸಗುಂಸಿ ಷದ್ವಿಶ್ವೇ ದೇವಾಸೂಕ್ತವಾಚ ಪೃಥಿವಿಮಾತರ್ಮಾ ಮಾಹಿ ಗುಂಸೀರ್ಮಧುಮನಿಷ್ಯೇ ಮಧುಜನಿಷ್ಯೇ ಮಧುಭಕ್ಷ್ಯಾಮಿ ಮಧುಪದಿಷ್ಯಾಮಿ ಮಧುಮತೀಂ ದೇವೇಭ್ಯೋ ವಾಚ ಬುದ್ಧ್ಯಾತ ಗುಂಸು ಶೋಷೇಣ್ಯಾ ಮನುಷ್ಯೇಭ್ಯ ಸ್ತಂಭಾ ದೇವಾ ಅವಂತು ಶೋಭಾಯೈ ಪಿತರೋನು ಮದಂತು ಓಂ ಶಾಂತಿ 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 ಓಂ ಅತ್ರಿಣಾತ್ವಾ ಕ್ರಿಮೇ ಹನ್ಮೀ ಕಣ್ವೇನ ಜಮದಗ್ನಿನಾ ವಿಶ್ವಾವಸೋರ್ಬ್ರಹ್ಮಣಾ ಹತಃ ಕ್ರಿಮೀನಾಗುಂ ರಾಜಾ ಅಪ್ಯೇಷಾಗುಸ್ಥಪತಿರ್ಹತಃ ಅಥೋ ಮಾತಾ ಅಥೋ ಪಿತಾ ಅಥೋ ಸ್ಥೂರ ಅಥೋ ಕ್ಷುದ್ರಾಃ ಅಥೋ ಕೃಷ್ಣ ಅಥೋ ಶ್ವೇತ ಅಥೋ ಆಶಾತಿಕಾ ಹತಾಃ ಶ್ವೇತಾಭಿಃ ಸಹ ಸರ್ವೇ ಹತಾಃ ಆಹರಾವದ್ಯ ಶ್ರುತಸ್ಯ ಹವಿಷೋ ಯಥಾ ತತ್ ಸತ್ಯಂ ಯದಮುಯ್ ಯಮಸ್ಯ ಜಂಭಯೋಃ ಆದಧಾಮಿ ತಥಾ ಹಿ ತತ್ ಖಂ ಖಂ ವ್ರಸೇ ಓಂ ಶಾಂತಿ ಶಾಂತಿ ಶಾಂತಿ
ಓಂ
ಭದ್ರಂ ಕರ್ಣೇಭಿಃ ಶೃಣುಯಾಮ ದೇವಾಃ ಭದ್ರಂ ಪಶ್ಯೇಮಾಕ್ಷಭಿರ್ಯಜತ್ರಾಃ ಸ್ಥಿರೈರಂಗೈಸ್ತುಷ್ಟುವಾಗುಂಸಸ್ತನೋಭಿಃ ವ್ಯಶೇಮ ದೇವಹಿತಂಯದಾಯುಃ ಸ್ವಸ್ತಿ ನ ಇಂದ್ರೋ ವೃದ್ಧಶ್ರವಾಃ ಸ್ವಸ್ತಿ ನ ಪೂಷಾ ವಿಶ್ವವೇದಾಃ ಸ್ವಸ್ತಿ ನಸ್ತಾರ್ಷೋ ಅರಿಷ್ಟನೇಮಿಃ ಸ್ವಸ್ತಿ ನೋ ಬೃಹಸ್ಪತಿರ್ದಧಾತು ಓಂ ಶಾಂತಿ 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 ಓಂ ನಮಸ್ತೆ ಗಣಪತಯೇ ತ್ವಮೇವ ಪ್ರತ್ಯಕ್ಷಂ ತತ್ವಮಸಿ ತ್ವಮೇವ ಕೇವಲಂ ಕರ್ತಾಸಿ
ತ್ವಮೇವ ಕೇವಲಂ ದತ್ತಾಸಿ
ತ್ವಮೇವ ಕೇವಲಂ ಹರ್ತಾಸಿ ತ್ವಮೇವ ಸರ್ವಂ ಖಲ್ವಿದಂ ಬ್ರಹ್ಮಾಸಿ ತ್ವಂ ಸಾಕ್ಷಾದಾತ್ಮಾಸಿ ನಿತ್ಯಂ ಋತಂ ವಚ್ಮಿ ಸತ್ಯಂ ವಚ್ಮಿ ಅವತ್ವಂ ವಾಂ ಅವವಕ್ತಾರಂ ಅವಶ್ರೋತಾರಂ ಅವದಾತಾರಂ ಅವಧಾತಾರಂ ಅವಾದೋಚಾನಮವಶಿಷ್ಯಂ ಅವಪಶ್ಚಾತ್ತಾತ್ ಅವಪುರಸ್ತಾತ್ ಅವೋತ್ತರಾತ್ತಾತ್
ಅವದಕ್ಷಿಣಾತ್ತಾತ್
ಅವಚೋರ್ಧ್ವಾತ್ತಾತ್ ಅವಾಧರಾತ್ತಾತ್ ಸರ್ವತೋ ಮಾಂ ಪಾಹಿ ಪಾಹಿ ಸಮಂತಾತ್ ತ್ವಂ ವಾಂಗ್ಮಯಸ್ತ್ವಂ ಚಿನ್ಮಯಃ ತ್ವಮಾನಂದಮಯಸ್ತ್ವಂ ಬ್ರಹ್ಮಮಯಃ ತ್ವಂ ಸಚ್ಚಿದಾನಂದಾದ್ವಿತೀಯೋಸಿ ತ್ವಂ ಪ್ರತ್ಯಕ್ಷಂ ಬ್ರಹ್ಮಾಸಿ ತ್ವಂ ಜ್ಞಾನಮಯೋ ವಿಜ್ಞಾನಮಯೋಸಿ sarvam jagadidam tvatto jayate, sarvam jagadidam tvattas tishthate, sarvam jagadidam tvayilaya veshyate, sarvam jagadidam tvayi pratyete, tvam bhumirapo nalo nilo nabha, tvam chatvariva padani, tvam gunatrayatitaha, tvam avasthatrayatitaha, tvam dehatrayatitaha, tvam kalatrayatitaha, tvam mooladharasthitosi nityam, tvam shaktitrayatmakaha, tvam yoginodhyayamni nityam, tvam brahma, tvam vishnus, tvam rudras, tvam indras, tvam agnis, tvam vayus, tvam suryas, tvam chandravas, tvam brahma bhur bhuvasvarom, gadadim purva bucharya varnadin stadanantaram, anusvara parataraha, ardhe dulasitam tarena ruddham etattava manusvarupam gakara purvarupam akaro madhyamarupam anusvarascha antyarupam binduruttararupam nadasandhanam sagumhita sandhihi saisha ganesha vidya ganagarshihi nisridgayatri chandaha ganapadirdevata om ganganapataye namaha ekadantaya vidmahe vakratundaya dhimahe tanno dantir prachodayat ekadantam chaturhastam pashavam kushadharinam
radam chavaradam hastir vibranam moshakadvajam raktam lambodaram shurpakarnakam raktavasasam rakta gandhanuliptangam rakta pushpai subodhitam bhakta nukampinam devam jagatkaranamachyutam avirbhutam cha srishtyadau prakrute purushatparam evam jayate yo nityam sa yogi yoginam varaha namo vratapataye namo ganapataye namah pramathapataye namaste astu lambodaraye kadantaya vighnanashine shivasutaya varadamurtaye namah yetadatharvaseersham yodhite sa brahma bhuyaya kalpate sarva vighnair nabadhyate sa sarvatra sukhamedhate sa pancha mahapapat prabhuchyate sa yabhe yano divasakritam papam nashayate pratarathe yano ratrikritam papam nashayate sayam pratah prayunjano papo papo bhavate sarvatradheyanopavighno bhavate dharmarthakamamokshan cha vindate idamatharvaseershamashishyayana deyam yoyadi mohadasyati sapapeyan bhavate sahasravartanadhyam yam kamamadhite tantamanena sadhayet anena ganapatimabhishinchati savagmi bhavate chaturthya manashnan japati savidyavan bhavate ityatharvana vakyam brahmadyavaranam vidyanna vibheti kadachaneete यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति यो लादैर्यजति स यशोवान् भवति स मेधावान् भवति यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः साज्यसमिद्भिर्यजति स सर्वम् लभते स सर्वम् लभते अष्टौ ब्राह्मणान् सञ्जग्राहयित्वा सूर्यवर्चस्वे भवति सूर्यग्रहे महानद्याम् प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति महाविघ्नात् प्रमुच्यते महादोषात् प्रमुच्यते महाप्रत्यवायात् प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति य एवम् वेद इत्युपनिषत् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्तिः शान्तिः।